एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। अद्य श्रीकृष्ण जन्माष्टमी पर्व अशेष हिन्दू धर्मावलम्बिभिः भगवतः श्रीकृष्णस्य पूजाराधने सम्पाद्य समायोज्यमानम् वर्तते। उपलक्ष्येऽस्मिन् विभिन्नेषु कृष्णमन्दिरेषु लक्ष्मीनारायणमन्दिरेषु च श्रद्धालवो भक्तजनः भगवतः श्रीकृष्णस्य दर्शनपूजनार्थं प्रातःकालादेव उपतिष्ठन्ते। विशेषतो राजधान्याः निकटवर्ति ललितपुरस्य श्रीकृष्णमन्दिरे भगवतः श्रीकृष्णस्य दर्शनपूजनस्तोत्रपाठान् कर्तुम् पारेसहस्रम् नराः नार्यश्च सश्रद्धम् सम्मिलिताः भवन्ति। असुर प्रकृतिकानाम् कंस मागदादीनाम् क्रूर शासकानाम् अत्याचारात् सज्जनान् संरक्षितुम् देवद्विज मुनिसिद्धानाम् प्रार्थनाम् स्वीकृत्य भाद्रकृष्णाष्टम्यः रात्रौ गोलोकनिवासी भगवान् राधारमणः मथुरायाः कारागारे देवकी वसुदेवयोः पुत्ररत्नत्वेन अवातरत् इति मान्यतामाश्रित्य कृष्णस्तु भगवान् स्वयमिति भागवत वचनम् निभाल्य च संसाराभिधानात् सततम् जागरूकान् दुःखदावानलदाहात् मुक्तिम् अभिलाषुकाः श्रद्धालवः व्रतोपवास भजन कीर्तनादि माध्यमेन सकल जीवनिकाया वासम् श्रीनिवासम् अमुम् स्मरन्ति अर्चन्ति च। अवसरेऽस्मिन् धार्मिक संघ संस्थाः श्रीकृष्णस्य श्रीविग्रहम् सज्जीकृत्य शंख घण्ट मृदंगान् संवाद्य जयघोषपूर्वकम् रथयात्राम् प्रस्तुवन्ति। देशस्य इतरभागेष्वपि अद्य रथयात्रोत्सवाः आयोज्यन्ते, यत्र बालवृद्ध महिला युवानः सहभागिनो भवन्ति। अस्मिन् क्रमे स्थाने स्थाने भगवतो लीला विलसितानि चित्राणि च प्रदर्श्यन्ते। असत्योपरि सत्यस्य अन्यायोपरि न्यायस्य च विजय प्रतीकस्य रूपेण इदं पर्व समाजे समादृतम् अस्ति। श्रीकृष्णस्य मुखारविन्दात् निःसृतम् निष्काम कर्म प्रतिपादकम् गीता दर्शनम् मानव जीवने सुख शान्ति सुव्यवस्था स्थापयितुम् महत्वपूर्णम् मन्यते। प्रधानमन्त्री केपी शर्मा ओली निगदति, नेपाले संचालितैः सर्वैः सामाजिक सञ्जाल माध्यमैः विदेहे परिदेहे अन्तर्गतैर्भाव्यम्। सूचना संचार प्रविधि प्रतिष्ठानेन ललितपुरे पूर्वे द्युः आयोजितस्य वैद्युताङ्कनयुत नेपाल विषयस्य विशेषोपवेशस्य उद्घाटन सत्रे प्रधानमन्त्री ओली सर्वेषाम् सामाजिक सञ्जालानाम् नेपालस्य प्रचलित विधेय अनुसारेण पंजीकरणम् विधेयमिति प्रावोचत। प्रधानमन्त्री ओली सर्वकारेण सम्प्रत्येव सूचना संचार प्रविधि नीतिः पारितीकृतास्ति, तत्र सूचना प्रविधि सम्बद्ध विकासस्य कार्याणाम् कथम् रूपान्तरणम् परिवर्तनम् च विधेयमिति सम्यक् विचारः कृतोस्तीति च असूचयत्। प्रधानमन्त्री ओली सम्प्रति सर्वकार स्थिरतायां सुशासने विकासे च सूचना प्रविधेः उपयोगः विधातव्यः इत्यत्र स्पष्टोस्तीत्यतः अत्र नैजक्षेत्राय अपि प्रोत्साहनम् प्रदीयते इति उदैरयत्। प्रधानमन्त्री केपी शर्मा ओली वदति, समृद्धो नेपाल सुखिनो नेपालिनश्चेति अभियानस्य पूरणाय सुशासनम् प्रथम शपथो वर्तते। प्रधानमन्त्री ओली मधेस प्रदेश प्रहरिणः नवनिर्मितस्य प्राशासनिक भवनस्य ह्य जनकपुर धामनि उद्घाटनम् विदधान देशम् समृद्धिर्देशि अग्रे नेतुम् सुशासनम् शान्ति सुरक्षे च महत्वपूर्णाः सफलताः सन्तीति प्रत्यपादयत्। तदवसरे प्रधानमन्त्री ओली देशे शान्ति सुरक्षायै अपराधानाम् नियन्त्रणाय च नेपाल प्रहरिणा भूमिका महत्वपूर्णा भवतीति चर्चयन् सीमक्षेत्रेषु जायमानानाम् अवैध क्रियाकलापानाम् नियन्त्रणाय कठोरेण प्रस्तुतम् भवितुम् प्रहरी प्रशासनम् निरदिशत। कार्यक्रमे मधेस प्रदेशस्य मुख्यमन्त्री सतीश कुमार सिंह संविधानस्य भावनाया अनुसारेण अथ च मधेस प्रदेश सर्वकारस्य वर्तमान गतिविधिनाम् अतिरिक्त प्रभावकारिणाम् सम्पादनाय च प्रहरी समायोजनम् शीघ्रम् विधातुम् संघीय सर्वकारम् प्रधानमन्त्रिणम् केपी शर्मा ओलिनम् च अन्वरुणद। कार्यक्रमे नेपाल प्रहरिण प्रहरी महानिरीक्षक दीपक थापा समृद्धो नेपाल सुखिनो नेपालिनश्चेति संकल्पस्य पूरणाय शान्ति सुरक्षाया सुशासनस्य अपराधानाम् नियन्त्रणस्य च कृते नेपाल प्रहरिण सक्रियेण प्रवर्त्यते इति प्रतिबद्धताम् व्यक्तवान्। ह्याएव प्रधानमन्त्री ओली पञ्चषष्टे कोटीनाम रूप्यकाणाम व्ययेन निर्मात्स्यमानस्य धनुषा जनपदस्य पनहरपुर हंसपुर मार्गेण खरिहानी सिमराडी स्थानयोजकस्य 10.35 उत्तर 16 किलोमीटर मितस्य मार्गस्य शिलान्यास व्यदधात्। प्रधानमन्त्री ओली मधेस प्रदेशस्य सभामुख रामचन्द्र मण्डलस्य संयुक्त रूपेण धनुषा जनपदस्य प्रथम क्षेत्रे पनहरपुर ज्ञान चतुष्पथ थे निर्मात्स्यमानस्य अस्य मार्गस्य शिलान्यासं व्यदधात्। बागमती प्रदेशस्य मुख्यमन्त्रिणा इन्द्रबहादुर बानिया विधेयेन ह्य नेपाली कांग्रेस दलस्य पक्षतः पञ्चमन्त्रिणः नियुज्य मन्त्री परिषद विस्तारिता वर्तते। मुख्यमन्त्री बानिया ह्य सामाजिक विकास मन्त्री पदे कञ्चन चन्द्र बादे इत्यमुम, आर्थिक विषय योजना मन्त्री पदे प्रभात तामाङ इत्यमुम, युवा खेलकुद मन्त्री पदे उर्मिला केसी नेपालम, संस्कृति पर्यटन मन्त्री पदे सुरेश श्रेष्ठम, सहकारी विपन्नता निवारण मन्त्री पदे विनु राय माझी इत्यमुम च नियुक्तवान अस्ति। नवनियुक्तान मन्त्रिणः प्रदेश प्रमुख दीपक प्रसाद देवकोटा ह्य एव शपथम अग्राहयत। प्रतिनिधि सभाया सभामुख देवराज घिमिरे अशीत्युत्तर 2000 वैक्रमाब्दस्य संघीय सर्वकारीय सेवा विधेयकस्य अवकाशानन्तरं वर्षद्वयस्य विश्रामावधेः व्यवस्थायां सम्भूताया त्रुटेर्विषये अनुसन्धानाय संघटिताया संसदीयानुसन्धान विशेष समिते प्रतिवेदनस्य क्रियान्वयनाय निर्दिशति। सभामुख घिमिरे सर्वेषां दलानां संसदीय कार्यालयान् प्रधानमन्त्री मन्त्री परिषद कार्यालयं विधि न्याय संसदीय विषय मन्त्रालयं संघीय विषय सामान्य प्रशासन मन्त्रालयं संघीय संसद सचिवालयं च आवश्यकाय क्रियान्वयनाय विधेयकमिदं प्रेषयितुं प्रतिनिधि सभायाः सचिवं हर्कराज राई इत्यमुं ह्यो निरदिशत्। वेशी आयोगस्य गत आर्थिक वर्षस्य षष्ठम वार्षिकम प्रतिवेदनम प्रस्तुतमस्ति। सभाया ह्यस्तनोपवेशे प्रधानमन्त्रिणः केपी शर्मा ओलीनः पक्षतः संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ राष्ट्रिय समावेशी आयोगस्य षष्ठम वार्षिकम प्रतिवेदनम प्रस्तोत। उपवेशे राष्ट्रिय सभाया सचिव डाक्टर सुरेन्द्र अरियालः राष्ट्रिय सभाया सप्तसु प्रदेशेषु निर्वाचक मण्डलैः आयोजितस्य समन्वयोपवेशस्य एकीकृतं प्रतिवेदनं सभासमक्षं प्रस्तुतवान् वर्तते। उपवेशे राष्ट्रिय सभायाः अध्यक्षेण नारायण प्रसाद दाहालेन सभायां पञ्जीकारितं प्रतिवेदनं सर्वकारस्य उपस्थितौ सभायां विमृक्ष्यते इति ज्ञापितम् अस्ति। तत्पूर्वं राष्ट्रिय सभायाः उपवेशे सांसदाः देशे संघीयतायाः क्रियान्वयनं जनाकांक्षायाः अनुसारेण कार्यसम्पादनं सबल विकास लक्ष्यस्य प्राप्ति देशस्य विकास समृद्धिश्चेत्यादिषु विषयेषु सर्वकारस्य ध्यानाकर्षणं विहितवन्तः। राष्ट्रिय सभायाः अपरोपवेशः भाद्रमासस्य तृतीये दिवसे सपादैकवादने वस्ता। प्रतिनिधिसभायाः अन्तर्गतायाः कृषि सहकारी प्राकृतिक स्रोत समितेः उपवेशे तत्ख्रीष्टवर्षीय हिन्दुकुश हिमालय संसदीय सम्मेलनस्य पूर्वकार्याणां विषये विमृष्टं वर्तते। सिंहप्रासादे ह्य उपविष्टे उपवेशे सम्मेलनस्य संयोजकः सांसदः वीरबहादुर बलायर भूटान म्यान्मार प्रवृत्तिनां देशानां प्रतिनिधयः अद्य काष्ठमण्डपं प्राप्नुवन्तीति असूचयत्।